नवग्रह मंत्राः ॐ आसक्ते नरजसा वर्तमानानि भेषयन्नमृतं मर्त्यं च हिरण्ययेन सविता रथेन देवो याजिभवना विपश्यन् अग्निं दोतं वृणीमहे होतारं विश्ववेदसम् अस्य यज्ञस्य सुकृतम् येषामेश पशुपतः पशूनां चतुष्पदा कृतचद्विपदा निष्क्रीतो यं यज्ञियं भागमे दुरायस्पशायजमानस्य सन्तो अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः अग्निर्मार्धाधिपक्वपृथिव्या अयम् अपागं रेतागं सजिन्वते श्योना पृथिविभवानृक्षरा निवेशने यच्छानः शर्म सप्रधाः क्षेत्रस्य पदिना वयगं हितेन वजयामसे रामः संवर्धयत्वादृशे हरिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः प्रवः शुक्राय भानवे भरद्वजं भव्यं मतिं चाग्नये सुपूतम् यो देव्यानि मानुषा जनागश्यन्तर्विश्वानि विद्मनाजिगाति इन्द्राणि मासुनारिषु सुभद्रे महवश्रवम् न ह्यस्यापरञ्जन जरसामरते पतिः इन्द्रं वा विश्वतस्परिह वामहे जनेभ्यः अस्माकमस्तु केवलः हरिदेवता प्रत्यधिदेवता सहिताय भगवते शुक्राय नमः आप्यायस्य समेतुते विश्वतस्वामवृत्ययम् भवावाजस्य सङ्गते अप्सुमे सोमा अब्रवीदं दर्विश्वादिमेधजा अग्निं च विश्वसम्भवश्च विश्वभेरजेः गौरेमिमायसलिलानि तक्षत्ये कपतेत्युपते सा चतुष्पते अष्टापदे नवपदे बभूविजे सहस्राक्षरा परमे व्योमन् अतिदेवता प्रत्यतिदेवता सहिताय सोमाय नमः उद्भुज्यस्ताग्ने प्रतिजागृत्येन मिट्टा भोर्त्रे संसृते धामिजं च पुनः कृण्वज्ञस्वामिदमञ्जुमानमन्वादागुंसेत्यगितन्तु मेधाम् इदं विष्णुर्विचक्रमे त्रेधानि दधे पदम् समानवस्य वागुंसुरे विष्णानराटमसि विष्णा पृष्ठमसि विष्णाश्चत्रे स्वविष्णाश्चोरसि विष्णाद्रुपमसि वेष्णवमसि विष्णवे त्वा अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः बृहस्पते अधियधर्योर्हाद्युमग्निभाति क्रतुमज्जनेषु यद्येत यच्छमसत्त्वप्रजा तदस्मासुद्रविनन्देहि चित्राम् इन्द्रमरत्वरिह वाहि सोमय्यताशार्याते अभिभस्वतस्य तव प्रणेदे तव षोरशम् मन्नापि वासन्ति कवयस्तु यज्ञाः ब्रह्मयज्ञानम् प्रसमम् पुरस्तात्विषे मदस्वरुजो वेणावः स बुद्धिया उपमास्य भिट्टास्तश्च यो निमसतश्च विवः हरिदेवता प्रत्यधिदेवता निहिताय बृहस्पतये नमः सन्ना देवीरभिट्टया भवन्तु वेदये संयोरविश्वमन्दुरः प्रजापतेन त्वदेताञ्जन्या विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्मास्तु वयज्ञस्यामपतयो येनाम् यमय्यमप्रस्तरमायुषेलाङ्गिरभिपितृभिः संविधानः आत्मान्द्राज्ञविषस्तावहन्ते नारायणि हविषामादयस्व अतिदेवता प्रत्यतिदेवता जिहिताय सनेश्चराय नमः तया नश्चित्राभवदूते सदामृतः सखा तया सजिष्टया मृता आयङ्गप्रश्निरग्रभेदसनन्मातरम् पुनः वितरम् च प्रयान् सुवः यत्ते देवेन निरनिराभबन्धतामग्रे वास्त्वविधर्त्रम् इदम् वेदद्यम्यायुषानमध्या तथा जीवपितुमद्धि प्रमुक्तः अतिदेवता प्रत्यतिदेवता सहिताय राहवे नमः केतम् कृण्वन्न केतवेशो मर्या अपेशसे समुषद्भिरदायधा ब्रह्मा देवानाम् रजवे कवीनाम् सर्वप्राणाम् महिषा मृगाणाम् सेना रुद्रानागस्वतिगर्वणा नागुं सोमः पवित्रमर्त्ये जिरेभन्ने सचित्र चित्रम् चिदयन्तमस्मे चित्रक्षत्र चित्रतमम् वयोधा चन्द्रम् रजम् पुरवीरम् बृहन्तम् चन्द्र चन्द्राभिर्गृणते युवस्व अधिदेवता प्रत्यधिदेवता सहिताय केतवे नमः।